एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिः विद्यादेवी भण्डारी काष्ठमण्डपोपत्यकायाः अभ्यन्तरे पुनर्निर्माणस्य क्रमे विद्यमानान् रानीपोखरी धरहरा काष्ठमण्डप दरबार हाईस्कूल वसन्तपुर प्रासादान् ह्य अवालोकयत्। अवलोकनस्य क्रमे राष्ट्रपतिः भण्डारी गोरखा भूकम्पेन प्रापित क्षतीनाम् ऐतिहासिक सम्पदाम् निर्माणस्य प्रगतेः तत्र प्रयुक्तानाम् सामग्रीणाम् च विषययोः अजानात्। अवलोकनस्य पश्चात् राष्ट्रपतिः भण्डारी ऐतिहासिक प्राचीन सम्पदाम् पुनर्निर्माणस्य पश्चात् तन् प्रगतिम् विलोक्य आत्मनि उत्साह जागृतोस्तीति चर्चयन्ती अभासत। विभिन्न समयेषु निर्मिताः ऐतिहासिक सम्पदो नेपालीनाम् सम्पत्तयः सन्ति। राष्ट्रपतिः भण्डारी नवीन सन्ततिम् सभ्य सदाचारयुक्त न्यायपूर्ण समाजस्य निर्माणे प्रेरयितुम् भौगोलिक प्राकृतिक सांस्कृतिक सम्पदाम् संरक्षणस्य आवश्यकताम् प्रादर्शयत्। राष्ट्रपतिः भण्डारी अवोचत् स्वदेशे एव उपलब्धानाम् साधन स्रोतसाम् प्रयोगेण मौलिकतायाः संरक्षणाय योगदान मेलिष्यति। राष्ट्रिय पुनर्निर्माण प्राधिकरणस्य प्रमुख कार्यकारी अधिकृतः सुशील ग्यवाली निर्माणाधीनानाम् आयोजनानाम् प्रमुखाश्च पुनर्निर्माणस्य अद्यावधिक प्रगतेर्विषये राष्ट्रपतिम् अज्ञापयन्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः कथयति मिलेनियम च्यालेञ्ज कर्पोरेशन परियोजना राष्ट्रस्य हिताय वर्तते इति सुनिश्चित्य अग्रे वर्धनीयम्। काष्ठमण्डपे गतदिने आयोजिते कान्तिपुर सांचारिक मेलने अध्यक्ष प्रचण्डः अवोचत् एमसीसी परियोजना विरोधस्य विवादस्य च विषयः सम्भूतोऽस्तीति हेतोः परियोजनेयम् सम्यग् अधीत्य आवश्यक परिमार्जनस्य अनन्तरम् पारितीकरणीया। स्वस्य प्रधानमन्त्रिकालेऽपि एमसीसी परियोजनायाः विषयः आगतः इति स्मरन् अध्यक्ष प्रचण्डः आत्मना परियोजनायाः आलोचकेन विरोधिना च न स्थितमिति समस्पष्टयत्। असौ अभासत राष्ट्रम् सम्प्रति विकास निर्माणे अग्रे वर्धमानमस्तीति अवस्थायाम् अमेरिकादेशेन प्रदीयमानः पञ्चपञ्चाशतः अब्जानाम् रूप्यकाणाम् अनुदान सहयोगः महत्वपूर्णः शेष्यति। दाङ जनपदस्य तुलसीपुरोपमहानगरपालिकायाः सप्तमवडा क्षेत्रस्य जितपुरे गतदिने वज्रपातेन जनद्वयम् मृतम् वर्तते। मृतके जितपुरस्यैव एक पञ्चाशत् वर्षीया लक्ष्मी आचार्यः षड्वर्षीया बालिका सृष्टि चौधरी च वर्तेते इति तुलसीपुरस्य स्थानीय प्रहरी कार्यालयस्य प्रहरी निरीक्षकः चक्र डम्बरपालः ज्ञापयति। दाङ जनपदस्यैव घोराई उपमहानगरपालिकायाः एकादशवडा क्षेत्रस्य हापुरस्थानेऽपि वज्रपातेन एतद् स्थानीय एव अष्टवर्षीयो बालकः ताराबहादुर पुरी मृतोऽस्ति। कारामुक्तो विधास्यते इति प्रलोभनम् प्रदर्श्य द्विचत्वारिंशतो लक्षाणाम् रूप्यकाणाम् वञ्चनस्य कार्ये संलग्नः काष्ठमण्डपस्य कीर्तिपुरवासी धनकुटा जनपदस्य सैदभूमिनगरपालिकायाः सप्तमवडा क्षेत्रे गृहस्थश्च द्विचत्वारिंशत् वर्षीयः टंकबहादुर राणा मगर प्रहरिणा निगृहीतो वर्तते। राजस्वक्षरण न्यायिक प्रकरणे नक्खु कारागारे विद्यमानः रमेश दाहालः भूमिम् न्यासस्य रूपेण संस्थाप्य प्रपञ्च सरणीम् संयोज्य न्यासव्यवस्थायाम् मोचयिष्यते इति निगद्य तस्यैव पितरम् विश्वासम् दापयित्वा अनुबन्धनस्य प्रपत्रम् च निर्माय द्विचत्वारिंशतो लक्षाणाम् रूप्यकाणाम् वञ्चकानाम् मध्ये एको मगर टेकुस्थितायाः महानगरीयापराध महाशाखायाः प्रेषितैः प्रहरीभिः काष्ठमण्डपस्य बहरमहल स्थानात् निगृह्य ह्य सार्वजनिकृतो वर्तते। चीनदेशस्य वुहान स्थानात् नेपालम् प्रत्यावर्तमानानाम् नेपालीनाम् स्थापनाय भक्तपुरस्य खरीपाटी स्थितम् नेपाल विद्युत् प्राधिकरणस्य भवनद्वयम् रिक्ति कृतम् वर्तते। प्राधिकरणस्य दक्षिणदिशः अवरतमस्तरे स्थितौ प्राधिकरणस्य वातावरण सामाजिकाध्ययन विभागः प्रशिक्षार्थी भवनञ्च रिक्ति कृते स्तः। खरीपाटी स्थाने सुरक्षा परीक्षण स्थलस्य स्थापनस्य निर्णयेन सहैव स्थानीयवासिनाम् विरोधोऽपि प्रारब्धो वर्तते। वसतितः द्वि किलोमीटरमितम् दूरम् परीक्षण कक्ष स्थापनीयः इति अन्तराष्ट्रिय मान्यताम् सर्वकारेण उल्लङ्घ्य वसतेः अन्तरायाम् चीनदेशात् प्रत्यावर्तितुकामान् नेपालिनः स्थापयितुम् इच्छितम् वर्तते इति निगद्य स्थानीयैः विरोधः कृतोऽस्ति। राष्ट्रिय सभायाः अध्यक्ष गणेश प्रसाद तिमलसिन्हा गदति राष्ट्रेण आर्थिक समृद्धेः प्राप्तये व्यावसायिक्यां व्यावहारिक्यां च शिक्षायां बलं प्रदातव्यम्। पर्वतजनपदस्य गुप्तेश्वर बहुमुखी महाविद्यालयस्य अष्टाविंशस्य वार्षिकोत्सवस्य कार्यक्रमे ह्यः अध्यक्ष तिमलसिन्हा अवदत् युववर्गाय स्वदेशे एव वृत्त्युपार्जनाय अवसर प्रदायिनी आर्थिकोपार्जन प्रधाना च शिक्षा आवश्यकी वर्तते। योगदाने आदृतायां सामाजिक सुरक्षा योजनायां एकलक्षं चतुश्चत्वारिंशत् सहस्राणि एकशतं चतुश्चत्वारिंशत् च श्रमिकाः सहभागिनो वर्तन्ते इति सामाजिक सुरक्षा कोषेण ज्ञापितं वर्तते। कोषे सूचीकृतानां वृत्त्युपार्जन दातॄणां संख्या द्वादश सहस्राणि एकशतं पञ्चत्रिंशत् च प्रापिता चेत् सर्वाधिकाः श्रमिकाः बागमती प्रदेशस्य सूचीकृताः सन्ति। पौष शुक्ल पूर्णिमातः प्रारब्धं मासावधिकं स्वस्थानि व्रतम् अद्य समाप्यमानं वर्तते। पौष शुक्ल पूर्णिमातः विधिपूर्वकं स्वस्थान्याः व्रतं प्रारभ्य नित्यं मध्याह्नकाले पार्वतीसहितस्य महादेवस्य पूजकैः भक्तजनैः अद्य व्रतमेतत् समाप्यमानमस्ति। तस्मादेव दिवसात् प्रारब्धायाः स्कन्दपुराणस्य अन्तर्गतस्य केदारखण्डस्य माघमहात्म्ये कुमारस्य अगस्त्यस्य च मध्ये सम्भूतस्य संवादस्य स्वस्थानि कथायाः रूपेण कथनश्रवण कार्यं च अद्यैव समाप्तिमेति। पृथ्वी राजमार्गस्य अन्तर्गते तनहु जनपदस्य रिमाल्नी स्थाने ट्रकयानं बसयानं च परस्परं संघटितं सद् ऊनविंशतिः जनाः आहताः वर्तन्ते। आहतानां डुम्रेस्थिते चिकित्सालये उपचारः विधीयमानोऽस्तीति तनहु जनपद प्रहरी कार्यालयस्य प्रहरी नायबोपरीक्षकः लीलाराज लामिच्छाने ज्ञापयति। सिन्धुपाल्चोक जनपदस्य तिपेनी प्रहरी कार्यालये शुक्रवासरस्य रात्रौ एकेन समूहेन स्वेच्छाचारितया शिला प्रहृत्य विहितेन आक्रमणेन कार्यालयस्य प्रभारिणा सह द्वौ प्रहरिणौ आहतौ स्तः इति समाचारः।